గణపతిగుం హవామహే కవిం కవీనాముపమశ్రవస్తమం జ్యేష్ఠరాజం బ్రహ్మణాం బ్రహ్మణస్పద ఆన శృణ్వన్నోదిభిః సేదసాదనం ప్రణో దేవీ సరస్వతీ వాజేభిర్వాజినీవతీ ధీనామ విత్రయవతో గణేశాయ నమః సరస్వత్యై నమః శ్రీగురుభ్యో నమః హరిః ఓం ఓం నమో భగవతే రుద్రాయ ఓం నమస్తే రుద్రమన్యవ ఉతోత ఇషవే నమః నమస్తే అస్తు ధన్వనే బాహుభ్యాముతతే నమః యాత ఇషు శివతమా శివం బభూవతే ధనుః శివాశరవ్యాయాత పతయానో రుద్రమృడయా యాతే రుద్ర శివా తనురఘోరా పాపకాశినీ తయానస్తను వాశంతమయా గిరిశంతాభిజాగజీః యామిషం గిరిశంత హస్తేభిభక్ష్యస్తవే శివాంగిరిత్రదాం కురు మాహి గుంశీ పురుషం జగత్ శివేన వచసా త్వా గిరిశాచ్ఛా వదామసి యథా నః సర్వమిజ్జగద యక్ష్మగుం సుమనా అసత్ అధ్య వోచదది వక్తా ప్రథమో దేవ్యోభిషక్ అహేగశ్చ సర్వాంజం వయం సర్వాకాశ్చయాతు ధాన్యః అసౌయస్తామ్రో అరుణ ఉత బభ్రస్సు మంగళః ఏచేమాగుం రుద్రా అభితో దిక్షశ్రితాత్ సహస్రశో వైశాగుం హేడగేమహే అసవ్యో వసర్పతి నీలగ్రీవో విలోహితః ఉదైనం గోపా అదృశన్నదృశన్నుదహార్యః ఉదైనం విశ్వాభూతాని సదృష్టో మృడయాతినః నమో అస్తు నీలగ్రీవాయ సహస్రాక్షాయ మీదృషే అథోయే అస్య సత్వానోహం దేభ్యో కరణ నమః ప్రముంచ ధన్వనత్వముభయోరాత్మియోర్జ్యాం యాశ్చ తే హస్త ఇషవః పరాతా భగవోపపా అవతత్య ధనుస్త్వగుం సహస్రాక్షశతేషు ధే నిషీర్య శల్యాణాముధా శివో నః సుమనాభవ విజ్యం ధను కపర్దినో విశల్యో బాణవాగుం ఉదా అనేశన్నస్యేషవ ఆభురస్య నిశం గతిః యా దేహేతిర్మే దుష్టమహస్తే బభూవతే ధనుః దయాస్మాన్ విశ్వతస్త్వమయక్ష్మయా పరిభుజ నమస్తే అత్వాయుధాయానాతతాయ దృష్ణవే ఉభాభ్యాముతతే నమో బాహుభ్యాం తవ ధన్వనే పరితే ధన్వనో హేతిరస్మాన్ వృణక్తు విశ్వతః అధో యేషు దిత్తవారే అస్మన్నిదేహిదం నమస్తే అస్తు భగవన్ విశ్వేశ్వరాయ మహాదేవాయ त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नमो हिरण्यबाहवे सेतान्ये दिशां च पतये नमो नमो वृक्षेभ्यो खरिकेशेभ्य पशूनां पतये नमो नमः सस्मिन् जगाय कृषिपते पधीनां पतये नमो नमो बब्लुषाय विद्याधिनेन्दानां पतये नमो नमो करिकेशायोपवीतिने पुष्पाणां पतये नमो नमो भवस्य हेत्यै जगताम् पतये नमो नमो रुद्राय तथा विने क्षेत्राणाम् पतये नमो नमः सूताय हन्त्याय वनानाम् पतये नमो नमो द्रोहिताय स्थपतये वृक्षाणाम् पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनाम् पतये नमो नम उच्चैर्घोषाय क्रन्दयते पत्नीनाम् पतये नमो नमः कृष्णवेताय धावते सत्त्वनाम् पतये नमः नमः सगमानाय निव्याधिन आव्याधिनीनाम् पतये नमो नमः ककुभाय निषङ्गिणे केस्तेनानाम् पतये नमो नमो निषङ्गिण इषुधिमते तस्कराणाम् पतये नमो नमो वञ्चते परिवञ्चते स्तायूनाम् पतये नमो नमो निचेरवे परिचरायारण्यानाम् पतये नमो नमः सृकाविभ्यो जिगागुंसद्भ्यो मुष्णताम् पतये नमो नमो सिमद्भ्यो नक्तम् चरद्भ्यप्रकृन्तानाम् पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्जानाम् पतये नमो नम इषमद्भ्यो धन्वाविभ्यश्च वो नमो नम आतन्वानेभ्य प्रदिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृजद्भ्यश्च वो नमो नमोऽस्यद्भ्यो विद्यद्भ्यश्च वो नमो नम आसीनेभ्य शयानेभ्यश्च वो नमो नम स्वपद्भ्यो जाग्रभ्यश्च वो नमो नमस्तिष्ठद्भ्यो दावभ्यश्च वो नमो नम सभाभ्यसभापदेभ्यश्च वो नमो नमो अश्वेभ्योऽश्वपदेभ्यश्च वो नमः नम आव्याधिनेकेभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगणाभ्यस्त्रिगुम्हतेभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो प्रातेकेभ्यो प्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यहट्टुल्लकेभ्यश्च वो नमो नमो रथेभ्यो रथेभ्यश्च वो नमो नमो रथेभ्यो रथपतिभ्यश्च वो नमो नमः सेना ಭಕ್ತೇನಾನೆಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮಃ ಕ್ಷತ್ರುಭ್ಯಃ ಸಂಗ್ರಹೇತೃಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮಸ್ತಕ್ಷಭ್ಯೋ ರಥಕಾರೇಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮಃ ಕುಲಾಲೇಭ್ಯಃ ಕರ್ಮಾರೇಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮಃ ಪುಂಜೇಷ್ಠೇಭ್ಯೋ ನಿಷಾದೇಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮಃ ಕಿಶೋಕೃದ್ಭ್ಯೋ ಧನ್ವಕೃದ್ಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮೋ ಮೃಗಯುಭ್ಯಶ್ವನಿಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮಃ ಶ್ವಭ್ಯಶ್ವಪತಿಭ್ಯಶ್ಚ ಭೋ ನಮಃ ನಮೋ ಭವಾಯ ಚ ರುದ್ರಾಯ ಚ ನಮಃ ಶರ್ವಾಯ ಚ ಪಶುಪತಯೇ ಚ ನಮೋ ನೀಲಗ್ರೀವಾಯ ಚ ಶಿತಿಕಂಠಾಯ ಚ ನಮಃ ಕಪರ್ತಿನೇ ಚ ಯುಕ್ತಕೇಶಾಯ ಚ ನಮಃ ಸಹಸ್ರಾಕ್ಷಾಯ ಚ ಶತಧನ್ವನೇ ಚ ನಮೋ ಗಿರಿಶಾಯ ಚ ಶಿಪಿಭಿಷ್ಟಾಯ ಚ ನಮೋ ಮೀದುಷ್ಟಮಾಯ ಚೇಷುಮತೇ ಚ ನಮೋ ಹ್ರಸ್ವಾಯ ಚ ವಾಮನಾಯ ಚ ನಮೋ ಬೃಹತೇ ಚ ವರ್ಷೀಯಸೇ ಚ ನಮೋ ವೃದ್ಧಾಯ ಚ ಸಂವೃದ್ಧನೇ ಚ ನಮೋ ಅಕ್ರಿಯಾಯ ಚ ಪ್ರಥಮಾಯ ಚ ನಮ ಆಶವೇ ಚಿರಾಯ ಚ ನಮ ಶೀಘ್ರಿಯಾಯ ಚ ಶೇಭ್ಯಾಯ ಚ ನಮ ಓರ್ಭ್ಯಾಯ ಚ ವತ್ಸನ್ಯಾಯ ಚ ನಮ ಶ್ರೋತಸ್ಯಾಯ ಚ ದ್ವೇಭ್ಯಾಯ ಚ ನಮೋ ಜ್ಯೇಷ್ಠಾಯ ಚ ಕನಿಷ್ಠಾಯ ಚ ನಮ ಪೂರ್ವಜಾಯ ಚ ಪರಜಾಯ ಚ ನಮೋ ಮಧ್ಯಮಾಯ ಚ ಪಗಲ್ಭಾಯ ಚ ನಮೋ ಜಗನ್ಯಾಯ ಚ ಬುದ್ಧಿಯಾಯ ಚ ನಮ ಸೋಭ್ಯಾಯ ಚ ಪ್ರತಿಸತ್ಯಾಯ ಚ ನಮೋ ಜ್ಞಾನ್ಯಾಯ ಚ ಕ್ಷೇಮ್ಯಾಯ ಚ ನಮ ಉರ್ವತ್ಯಾಯ ಚ ಖಲ್ಯಾಯ ಚ ನಮ ಶ್ಲೋಕ್ಯಾಯ ಚ ವಸಾನ್ಯಾಯ ಚ ನಮೋ ವನ್ಯಾಯ ಚ ಕಕ್ಷಾಯ ಚ ನಮ ಶ್ರವಾಯ ಚ ಪ್ರತಿಶ್ರವಾಯ ಚ ನಮ ಆಶುಷೇಣಾಯ ಚ ಶುರಧಾಯ ಚ ನಮ ಶೂರಾಯ ಚ ವಬಿಂಧತೇ ಚ ನಮೋ ವರ್ಮಿಣೇ ಚ ವರೋಧಿನೇ ಚ ನಮೋ ಬಿಲ್ಮಿಣೇ ಚ ಕವಚಿನೇ ಚ ನಮ ಶ್ರುತಾಯ ಚ ಶ್ರುತಸೇನಾಯ ಚ ನಮೋ ದುಂದುಭ್ಯಾಯ ಚ ಹನನ್ಯಾಯ ಚ ನಮೋ ದೃಷ್ಣವೇ ಚ ಪ್ರಮೃಷಾಯ ಚ ನಮೋ ದೂತಾಯ ಚ ಪ್ರಹಿತಾಯ ಚ ನಮೋ ನಿಷಂಗಿಣೇ ಚೇಷುಧಿಮತೇ ಚ ನಮ ಶೇಷೇಷದೇ ಚಾಯುಧಿನೇ ಚ ನಮ ಸ್ವಾಯುಧಾಯ ಚ ಸುಧನ್ವನೇ ಚ ನಮ ಶ್ರುತ್ಯಾಯ ಚ ಪತ್ಯಾಯ ಚ ನಮ ಕಾಟ್ಯಾಯ ಚ ನೀಪ್ಯಾಯ ಚ ನಮ ಸೋದ್ಯಾಯ ಚ ಸದಸ್ಯಾಯ ಚ ನಮೋ ನಾದ್ಯಾಯ ಚ ವೈಶಂತಾಯ ಚ ನಮ ಕೋಪ್ಯಾಯ ಚ ವಕ್ಷ್ಯಾಯ ಚ ನಮೋ ವಶ್ಯಾಯ ಚ ವಶ್ಯಾಯ ಚ ನಮೋ ಮೇಘ್ಯಾಯ ಚ ವಿದ್ಯುತ್ಯಾಯ ಚ ನಮ ಈದ್ರಿಯಾಯ ಚ ದಪ್ಯಾಯ ಚ ನಮೋ ವಾತ್ಯಾಯ ಚ ರೇಷ್ಮಿಯಾಯ ಚ ನಮೋ ವಾಸ್ತವ್ಯಾಯ ಚ ವಾಸ್ತುಪಾಯ ಚ ಓಂ ಹರ 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 ಓಂ ನಮಃ ಸೋಮಾಯ ಚ ರುದ್ರಾಯ ಚ ನಮಃ ಸಾಮ್ರಾಯ ಚ ಋಣಾಯ ಚ ನಮಃ ಶಂಗಾಯ ಚ ಪರಿಪತಯೇ ಚ ನಮಃ ಉಗ್ರಾಯ ಚ ಭೀಮಾಯ ಚ ನಮೋ ಅಗ್ರೇ ವಧಾಯ ಚ ದೂರೇ ವಧಾಯ ಚ ನಮೋ ಹಂತ್ರೇ ಚ ಹನೀಯಸೇ ಚ ನಮೋ ವೃಕ್ಷೇಭ್ಯೋ ಹರಿಕೇಶೇಭ್ಯೋ ನಮಸ್ಕಾರ. शम्भवे च मयो भवे च नमः शंकराय च मयस्कराय च नमः शिवाय च शिवतराय च नमः सेत्याय च कोल्याय च नमः पार्याय च वार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आतार्याय च लाद्याय च नमः षष्ट्याय च भेन्याय च नमः सिकत्याय च प्रवाक्याय च नमः गिरण्याय च प्रपथ्याय च नमः किगुंशिलाय च क्षयणाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमः सल्प्याय च गेक्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदय्याय च निवेष्ट्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ओर्याय च सोर्याय च नमः पर्याय च पर्णशक्याय च नमो पगुरमाणाय चाभिघ्नते च नमः आख्यदते च प्रख्यदते च नमो वक्रिकेभ्यो देवानागुं हृदकेभ्यो नमो दिक्षेणकेभ्यो नमो विजिन्वक्केभ्यो नम आनिर्हतेभ्यो नम आमीवक्केभ्यः द्रापे अन्धसत्पदे दरिद्रन्नीललोहिता येषाम् पुरुषाणाम् येषाम् पशूनाम् माभिर्मा रोमो येषाम् किञ्चन ममत् याते रुद्रशिवा तनो शिवा विश्वाख भेषजे शिवा रुद्रस्य भेषजे तया नो मृडजीवसे इमागुं रुद्राय तवसे कपर्दिने के क्षयद्वीराय प्रभरामहे मतिम् यथा नश्यमसद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृडानो रुद्रोतनो मयस्कृति क्षयद्वीराय नमसा विधेमते यच्चम् च योच्चमनुराय जे पिता तदस्यामदव रुद्रप्रणीतो मानो महान्तमुदमानो अर्धकम् मान उक्षन्तमुदमान उक्षितम् मानो वधे पितरम् मोदमातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोकेतनये मान आयुषि मानो गोषु मानो अश्वेषु रीरिषः वीरान्मानो रुद्रभामितो वतेर्हविष्मन्तो नमसा विधेमते आराते गोघ्नमुतपोरुषग्ने क्षयद्वीराय सुम्नमस्मे तेगस्तु रक्षाजनो अधिजदेव ब्रूषदा च नश्यन्म यच्छद्विबरुहाकाः सुहिश्रुतम् गर्तसतम् युवानम् मृगन्न भीममुपहत्नुमुग्रम् मृडा चरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः परिणो रुद्रस्य हेतुर्वृणक्तु परित्वेषस्य दुर्मदिरघायोः अवस्थिरामगमध्यस्तनुश्वमेघत्सोकायतनयाय मृडया मेढुष्टमशिवतमशिवो नः सुमना भव परमे वृक्ष आयुधन् निधाय कृत्यम् वसा नमाचर पिनाकम् बिभ्रता गहे विगिरिद विलोहित नमस्ते अस्तु भगवः ಯಾಸ್ತೆ ಸಹಸ್ರ ಗುಂಹೇದ ಯೋನ್ಯಮಸ್ಮನ್ನಿವ ಪಂತು ತಾಹ ಸಹಸ್ರಾಣಿ ಸಹಸ್ರದಾಭುವೋತ್ಸವ ಹೇತಯಃ ತಾಸಾಮೀಶಾನೋ ಭಗವ ಪರಾಚೇನಾ ಮುಖಾಗ್ರದೇ ಸಹಸ್ರಾಣಿ ಸಹಸ್ರಶೋಗೇ ರುದ್ರ ಅಧಿಭೂಮ್ಯಾ ತೇಷಾಗುಂ ಸಹಸ್ರಯೋಜನೇ ವಧನ್ನಾನಿ ಜನ್ಮಸೇ ಅಸ್ಮಿನ್ನಹತ್ಯರ್ಣವೇಂದರಿಕ್ಷೇ ಭವಾ ಅಧಿ ನೀಲಗ್ರೀವಾಶಿತಿ ಕಂಠಾಗಾಚರ್ವಾ ಅಧಃ ಕ್ಷಮಾಚರಾಗ ನೀಲಗ್ರೀವಾಶಿತಿ ಕಂಠಾದಿವಗುಂ ರುದ್ರ ಉಪಶ್ರಿತಾಗ ಯೇ ವೃಕ್ಷೇಷು ತಸ್ಮಿನ್ ಜರಾ ನೀಲಗ್ರೀವಾ ವಿಲೋಹಿತಾಃ ಯೇ ಭೂತಾನಾಮಧಿಪತಯೋ ವಿಶಿಖಾಸಕ್ಕಪರ್ದಿನಃ ಯೇ ಅನ್ನೇಷು ವಿಭಿಧ್ಯಂತಿ ಪಾತ್ರೇಷು ಪಿಬದೋ ಜನಾನ್ ಯೇ ಪಥಾಂ ಪದಿ ರಕ್ಷಯ ಐಲಭೃತಾಯ ವ್ಯುಧಃ ಯೇ ತೀರ್ಥಾನಿ ಪ್ರಜರಂತಿ ಸೃಗಾವಂತೋ ನಿಷಂಗಿಣಃ ಯಗೇತಾವಂತಶ್ಚ ಭೂಯಾಗುಂಸಶ್ಚ ದಿಶೋ ರುದ್ರಾವಿತಸ್ಥಿರೇ ತೇಷಾಗುಂ ಸಹಸ್ರಯೋಜನೇ ವದನ್ವಾನಿ ಧನ್ಮಸೇ ನಮೋ ರುದ್ರೇಭ್ಯೋ ಗೇ ಪೃಥಿವ್ಯಾಂ ಗೇಂತರಿಕ್ಷೇ ಗೇ ದಿವಿಗೇ ಶಾಮನ್ನಂ ಪಾತೋ ವರುಷಮಿಷವಸ್ತೇಭ್ಯೋ ದಶ ಪ್ರಾಚೇರ್ದಶ ದಕ್ಷಿಣಾ ದಶ ಪ್ರತಿಚೇರ್ದಶೋ ದೇಚೇರ್ದಶೋರ್ಧ್ವಾಸ್ತೇಭ್ಯೋ ನಮಸ್ತೇನೋ ಮೃಡಯಂತು ತೇಯಂ ವಿಶ್ವೋ ಯಶ್ಚ ನೋ ದ್ವೇಷಿತಂ ಭೋಜಂ ಹೇ ದದಾಮಿ ತ್ರ್ಯಂಬಕಂ ಯಜಾಮಹೇ ಸುಗಂಧಿಂ ಪುಷ್ಟಿವರ್ಧನಂ ಉರ್ವಾರುಕಮಿವ ಬಂಧನಾನ್ ಮೃತ್ಯೋರ್ಮುಕ್ಷೇಯಮಾಮೃತಾತ್ ಯೋ ರುದ್ರೋ ಅಗ್ನವ್ಯೋ ಅಪ್ಸು ಯ ಓಷಧೀಷು ಯೋ ರುದ್ರೋ ವಿಶ್ವಾ ಭುವನಾ ವಿವೇಶ ತಸ್ಮೈ ರುದ್ರಾಯ ನಮೋ ಅಸ್ತು ಏತೇ ಸಹಸ್ರಮಯುತಂ ಪಾಶಾ ಮೃತ್ಯೋರ್ಮತ್ಯಾಯ ಹಂತವೇ ತಾನ್ಯಜ್ಞಸ್ಯ ಮಾಯಯಾ ಸರ್ವಾನವಯಜಾಮಹೇ ಮೃತ್ಯವೇ ಸ್ವಾಹಾ ಮೃತ್ಯವೇ ಸ್ವಾಹಾ ಪ್ರಾಣಾನಾಂ ಗ್ರಂಥಿರಸಿ ರುದ್ರೋ ಮಾ ವಿಶಾಂತಕಃ ತೇನಾನ್ಯೇನಾಕಾಮ್ಯಾಯಸ್ವ ನಮೋ ರುದ್ರಾಯ ವಿಷ್ಣವೇ ಮೃತ್ಯುರ್ಮೇ ಪಾಹಿ ತಮುಷ್ಟು ಹಿಯಸ್ವಿಷು ಸುಧನ್ವಾಯೋ ವಿಶ್ವಸ್ಯ ಕ್ಷಯದಿ ಭೇಷಜಸ್ಯ ಯಕ್ಷ್ವಾ ಮಹೇಶೋ ಮನಸಾಯ ರುದ್ರಂ ನಮೋ ಬಿರ್ದೇವಮಸುರಂದುವಸ್ಯ ಅಯಂ ಮೇ ಹಸ್ತೋ ಭಗವಾನ್ ಅಯಂ ಮೇ ಭಗವತ್ತರಃ ಅಯಂ ಮೇ ವಿಶ್ವಭೇಷಜೋಯಗುಂ ಶಿವಾಭಿಮರುಷಣಃ ಓಂ ಶಾಂತಿ ಶಾಂತಿ ಶಾಂತಿಃ ಓಂ ಅಗ್ನಾ ವಿಷ್ಣೋ ಸಜೋಷಸೇ ಮಾ ವರ್ಧಂತು ವಾಂಗಿರಃ ದ್ಯುಮ್ನೈರ್ವಾಜೇಭಿಜಾಗತಂ ವಾಜಶ್ಚ ಮೇ ಪ್ರಸವಶ್ಚ ಮೇ ಪ್ರಯತಿಶ್ಚ ಮೇ ಪ್ರಸಿತಿಶ್ಚ ಮೇ ಧೀತಿಶ್ಚ ಮೇ ಕ್ರತುಶ್ಚ ಮೇ ಸ್ವರಶ್ಚ ಮೇ ಶ್ಲೋಕಶ್ಚ ಮೇ ಶ್ರಾವಶ್ಚ ಮೇ ಶ್ರುತಿಶ್ಚ ಮೇ ಜ್ಯೋತಿಶ್ಚ ಮೇ ಶುಭಶ್ಚ ಮೇ ಪ್ರಾಣಶ್ಚ ಮೇ ಪಾನಶ್ಚ ಮೇ ವ್ಯಾನಶ್ಚ ಮೇ ಸುಶ್ಚ ಮೇ ಚಿತ್ತಂಚ ಮಾಧೀತಂಚ ಮೇ
वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रं च मे दक्षश्च मे बलं च म ओजश्च मे सहश्च म आयुश्च मे जरा च म आत्मा च मे तनुश्च मे चर्म च मे वर्म च मेऽङ्गानि च मे स्थानि च मे परुगुंषि च मे शरीराणि च मे जैष्ठ्यं च म आधिपत्यं च मे मन्युश्च मे भामश्च मे मश्च मेऽम्भश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रतिमा च मे वश्मा च मे द्राघुया च मे वृद्धं च मे वृद्धिश्च मे सत्यं च मे श्रद्धा च मे जगच्च मे धनं च मे वशश्च मे द्विषिश्च मे क्रीडा च मे मोदश्च मे जातं च मे जनिष्यमाणं च मे सूक्तं च मे सुकृतं च मे वित्तं च मे वेद्यं च मे भूतं च मे भविष्यच्च मे सुगं च मे सुपथं च मरुद्धं च मरुद्धिश्च मे क्लुप्तं च मे क्लुप्तिश्च मे मतिश्च मे सुमतिश्च मे शं च मे मयश्च मे प्रियं च मेऽनुकामश्च मे कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे वश्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे यन्ता च मे धत्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे महश्च मे संविच्च मे ज्ञात्रं च मे सोश्च मे प्रसोश्च मे क्षीरं च मे लयश्च मरुतं च मे मृतं च मे यक्ष्मं च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वं च मे न मित्रं च मे भयं च मे सुगं च मे शयनं च मे शोषा च मे सुदिनं च मे ऊर्च मे सोनृता च मे पयश्च मे रसश्च मे घृतं च मे मधु च मे सग्दिश्च मे सपेदिश्च मे कृषिश्च मे वृष्टिश्च मे जैत्रं च म औद्भिद्यं च मे रयिश्च मे रायश्च मे पुष्टं च मे पुष्टिश्च मे विभु च मे प्रभु च मे बहु च मे भूयश्च मे पूर्णं च मे पूर्णतरं च मे क्षितिश्च मे कूयवाश्च मेनं च मे क्षुच्च मे व्रीहयश्च मे यवाश्च मे माशाश्च मे तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मे नवश्च मे श्यामाकाश्च मे नीवाराश्च मे अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे हिरण्यं च मे यश्च मे शेषं च मे त्रपुश्च मे श्यामं च मे लोहं च मे अग्निश्च म आपश्च मे विरुधश्च म ओषधयश्च मे कृष्टपच्यं च मे कृष्टपच्यं च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्ताम् वित्तं च मे वित्तिश्च मे भूतं च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च म एमश्च म इतिश्च मे गतिश्च मे అగ్నిశ్చ మహీంద్రశ్చ మే సోమశ్చ మహీంద్రశ్చ మే సవితా చ మహీంద్రశ్చ మే సరస్వతీ చ మహీంద్రశ్చ మే పూషా చ మహీంద్రశ్చ మే బృహస్పతిశ్చ మహీంద్రశ్చ మే మిత్రశ్చ మహీంద్రశ్చ మే వరుణశ్చ మహీంద్రశ్చ మే త్వష్టా చ మహీంద్రశ్చ మే ధాతా చ మహీంద్రశ్చ మే విష్ణుశ్చ మహీంద్రశ్చ మే శ్వినో చ మహీంద్రశ్చ మే మరుతశ్చ మహీంద్రశ్చ మే విశ్వే చ మే దేవా ఇంద్రశ్చ మే పృథివీ చ మహీంద్రశ్చ మేంతరిక్షం చ మహీంద్రశ్చ మే ద్యౌశ్చ మహీంద్రశ్చ మే దిశశ్చ మహీంద్రశ్చ మే మూర్ధా చ మహీంద్రశ్చ మే ప్రజాపతిశ్చ మహీంద్రశ్చ మే అగుంశుశ్చ మే రశ్మిశ్చ మేధాభ్యశ్చ మేధిపతిశ్చ మ ఉపాగుంశుశ్చ మేంతర్వ్యామశ్చ మ ఐంద్రవాయవశ్చ మే మైత్రావరుణశ్చ మ ఆశ్వినశ్చ మే ప్రతి ప్రస్థానశ్చ మే శుక్రశ్చ మే మంతే చ మ ఆగ్రయణశ్చ మే వైశ్వదేవశ్చ మే ధ్రువశ్చ మే వైశ్వానరశ్చ మరుతు గ్రహాశ్చ మేతి గ్రాహ్యాశ్చ మ ఐంద్రాగ్నశ్చ మే వైశ్వదేవశ్చ మే మరుత్వతీయాశ్చ మే మాహేంద్రశ్చ మ ఆదిత్యశ్చ మే సావిత్రశ్చ మే సారస్వతశ్చ మే పౌష్ణశ్చ మే పార్థివతశ్చ మే హారియోజనశ్చ మే ఇద్మశ్చ మే బర్హిశ్చ మే వేదిశ్చ మే ధృష్ణీయాశ్చ మే సృజశ్చ మే శ్రమసాశ్చ మే గ్రావాణశ్చ మే స్వరవశ్చ మ ఉపరవాశ్చ మే ధిషవణే చ మే ద్రోణకలశశ్చ మే వాయవ్యాని చ మే పూతభృచ్చ మ ఆధవనీయశ్చ మ ఆగ్నేర్ధం చ మే హవిర్ధానం చ మే గృహాశ్చ మే సదశ్చ మే పురోడాశాశ్చ మే పచతాశ్చ మే వవృదశ్చ మే స్వగాకారశ్చ మే అగ్నిశ్చ మే ఘర్మశ్చ మేర్కశ్చ మే సూర్యశ్చ మే ప్రాణశ్చ మే శ్వమేధశ్చ మే పృథివీ చ మే దితిశ్చ మే దితిశ్చ మే ద్యౌశ్చ మే శక్వరీరంగులయో దిశశ్చ మే యజ్ఞేన కల్పంతామృక్చ మే సామ చ మే స్తోమశ్చ మే యజుశ్చ మే దీక్షా చ మే తపశ్చ మరుతుశ్చ మే వ్రతం చ మే హోరాత్రయో దృష్ట్యా బృహద్రథంతరే చ మే యజ్ఞేన కల్పేతాం గర్భాశ్చ మే వత్సాశ్చ మే త్రయవిశ్చ మే త్రయవే చ మే దిత్యవాక్చ మే దిత్యౌహే చ మే పంచావిశ్చ మే పంచావే చ మే త్రివత్సశ్చ మే త్రివత్సా చ మే తుర్యవాక్చ మే తుర్యౌహే చ మే పష్ఠవాక్చ మే పష్ఠౌహే చ మ ఉక్షా చ మే వశా చ మ ఋషభశ్చ మే వేహంచ మే నడ్వాంచ మే ధేనుశ్చ మ ఆయుర్యజ్ఞేన కల్పతాం ప్రాణో యజ్ఞేన కల్పతామపానో యజ్ఞేన కల్పతాం వ్యానో యజ్ఞేన కల్పతాం చక్షుర్యజ్ఞేన కల్పతారుశ్రోత్రం యజ్ఞేన కల్పతాం మనోయజ్ఞేన కల్పతాం వాక్యజ్ఞేన కల్పతాం ఆత్మయజ్ఞేన కల్పతాం యజ్ఞయజ్ఞేన కల్పతాం. एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंशतिश्च मे त्रयोविगुंशतिश्च मे पञ्चविगुंशतिश्च मे सप्तविगुंशतिश्च मे नवविगुंशतिश्च म एकत्रिगुंशच्च मे त्रयस्त्रिगुंशच्च मे चतस्रश्च मे षौच मे द्वादश च मे षोडश च मे विगुंशतिश्च मे चतुर्विगुंशतिश्च मे षाविगुंशतिश्च मे द्वात्रिगुंशच्च मे षट्त्रिगुंशच्च मे चत्वारिगुंशच्च मे चतुश्चत्वारिगुंशच्च मे षाचत्वारिगुंशच्च मे वायश्च प्रसवश्चाभिजश्च क्रतुश्च सुवश्च मूर्धाच व्यश्नियश्चान्त्यायनश्चान्त्यश्च भुवनश्च भुवनश्चाधिपतिश्च इडा देवहोर्मनुर्यज्ञनिर्बृहस्पतिरुक्ता मदानि च गुंसि षद्विश्वे देवासोक्तवाच पृथिवीमातर्मा माहि गुंसिर्मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमते देवेभ्यो वाचमुद्यातगुं शुश्रूषेण्याम् मनुष्येभ्यस्तम् मा देवा अवन्तु शोभायै पितरोऽनुमदन्तु ॐ शान्ति 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 ॐ तच्छयोरावृणीमहे गातुं यज्ञाय गातुं यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वं जृगातु भेषजम् शन्नो अस्तु द्विपदे शञ्चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् स भूमिम् विश्वतो वृत्वा अत्यधिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतं यच्च भव्यम् उतामृतत्वस्येषा नः यदन्नेनातिरोहति एतावानस्य महिमा अतो ज्यायागुश्च पुरुषः पादोऽस्य विश्वभूतानि त्रिपादस्यामृतम् दिवि त्रिपादोर्ध्वौ दैत्पुरुषः पादोऽस्येहा भवात् पुनः ततो विश्वम् व्यक्रामत् शाशनानशने अभि तस्माद्विराडजायता विराजो अधिपुरुषः स जातो अत्यरिच्यता पश्चाद्भूमिमथो पुरः यत्पुरुषेण हविषा देवायज्ञमतन्वता वसन्तो अस्यासीदाज्यम् ग्रीष्म युग्म शरद्भविः सप्तास्यासन् परिधयः त्रिसप्त समिध कृताः देवायज्ञम् तन्वानाः अबध्नन् पुरुषम् पशुम् तै यज्ञम् बर्हिषि प्रोक्षन् पुरुषम् जातमग्रतः तेन देवा अयजन्ता साध्यार्षयश्च ये तस्माद्यज्ञात् सर्वभूतः समृतम् पृषदाज्यम् पशोगस्तागश्चक्रे वायव्यान् आरण्यान् ग्राम्याश्च ये तस्माद्यज्ञात् सर्वभूतः ऋतः सामानि जज्ञिरे छन्दागुंसि जज्ञिरे तस्मात् यजुस्तस्मादजायताम् तस्मादश्वा अजायन्ताम् ये केचो भयादतः गावोह जज्ञिरे तस्मात् तस्माज्जाता अजावयः यत्पुरुषम् व्यदधुः कतिधा व्यकल्पयन् मुखम् किमस्य कौ बाहो का वोरूपादावुच्येते ब्राह्मणोऽस्य मुखमासीत् बाहो राजन्यः कृतः ऊरु तदस्य यद्वैश्यः पद्भ्यागुम् शूद्रो अजायत चन्द्रमामनसो जातः चक्षो सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्यासीदन्तरिक्षम् शेष्णोद्यौ समवर्तत पद्भ्याम् भूमिर्दिश श्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु भारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाभिवदन्यदास्ते धाता पुरस्ताद्यमुदा जहार शक्रः प्रविद्वान् प्रदिशश्च तस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः सचन्ते यत्र पूर्वे साध्याः सन्ति देवाः अद्यः सम्भूतपृथिव्यैरसा च विश्वकर्मणः समवर्तताधि तस्य त्वष्टा विदद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्था विद्यते यनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीराः परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेधसः यो देवेभ्यातपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये रुचम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवा असन्वशे रेश्च ते लक्ष्मीश्च पत्न्यो अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यात्तम् इष्टम् मनिषाणा अमुम् मनिषाणा सर्वम् मनिषाणा तच्छय्यो रावृणीमहे गातुम् यज्ञाय
गातुं यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वं जिगातु भेषजम् शन्नो अस्तु द्विपदे शञ्चतुष्पदे ॐ शान्ति शान्ति शान्तिः ॐ अत्रिणात्वा कृमे हन्मि कण्वेन जमदग्निना विश्वावसोर्ब्रह्मणा हतः कृमीनागुं राजा अप्येषागस्थपतिर्हतः अधो माताधो पिता अधो स्थूराः अधो क्षुद्राः अधो कृष्णा अधो श्वेताः अधो आजातिकाः ताः श्वेताभिस्सर्वे हताः आहरावद्या श्रुतस्य हविषो यथा तत्सत्यम् यदमुह्यमस्य जम्भयोः आदधामि तथा हि तत् खण्ड्रसे ॐ शान्ति शान्ति शान्तिः ॐ अग्निवीले पुरोहितम् यज्ञस्य देवमृत्विजम् होतारम् रक्तधातमम् ऋग्वेदात्मने सूर्यनारायणस्वामिने नमः इषेत्तोर्जे त्वा वायवत्सोपाय वत्स देवो सविता प्रार्पयतु श्रेष्ठतमाय कर्मणे यजुर्वेदात्मने सूर्यनारायणस्वामिने नमः अग्र आयाये वेतये गृणानो हव्यदातये निहोतात्से बर्हिजे सामवेदात्मने सूर्यनारायणस्वामिने नमः शन्नो देवेदभिष्टय आपो भवन्तु पीतये शय्यो रवश्रवन्तु नः अधर्मवेदात्मने सूर्यनारायणस्वामिने नमः घृणित् सूर्य आदित्यो न प्रभावात्यक्षजम् मधुक्षरन्ति तद्रसम् सत्यम् वैदद्रसवापो ज्योतेरसोऽमृतम् ब्रह्म भोर्भुवः सुभरो छायासु वच्चलाम्बासमेत श्री सूर्यनारायणस्वामिने नमः धरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य विश्वमाभासिरोचनम् उभयामगृहीतोऽसि सूर्याय त्वा भ्राजस्वतगेशते योनि सूर्याय त्वा भ्राजस्वते छायासु वच्चलाम्बासमेत श्री सूर्यनारायणस्वामिने नमः ॐ ह्राम् उद्यन्नद्य मित्रमः मित्राय नमः ॐ ह्रीं आरोहन्नुत्तरान्दिवम् रवये नमः ॐ ह्रों ಹೃದ್ರೋಗಂ ಮಮ ಸೂರ್ಯ ಸೂರ್ಯಾಯ ನಮಃ ಓಂ ಹ್ರೈಂ ಹರಿವಾಣಂಜನಾಶಯ ಭಾನವೇ ನಮಃ ಓಂ ಹ್ರೌಂ ಶುಕೇಶು ಮೇ ಹರಿವಾಣಂ ಖಗಾಯ ನಮಃ ಓಂ ಹಃ ರೂಪಣಾಕಾಶು ದದ್ಮಸೇ ಪೂಷ್ಣೇ ನಮಃ ಓಂ ಹ್ರಾಂ ಅಧೋಹಾರಿದ್ರವೇಶು ಮೇ ಹಿರಣ್ಯಗರ್ಭಾಯ ನಮಃ ಓಂ ಹ್ರೀಂ ಹರಿವಾಣಂ ನಿಧತ್ಮಸೇ ಮರೀಚಯೇ ನಮಃ ಓಂ ಹ್ರೂಂ ಉದಗಾದಯಮಾದಿತ್ಯಃ ಆದಿತ್ಯಾಯ ನಮಃ ಓಂ ಹ್ರೈಂ ವಿಶ್ವೇನ ಸಹಸಾ ಸಹ ಸವಿತ್ರೇ ನಮಃ ಓಂ ಹ್ರೌಂ ದ್ವಿಷಂತಂ ಮಮ ರಂಧಯನ್ ಅರ್ಕಾಯ ನಮಃ ಓಂ ಹ್ರಃ ಮೋ ಅಹಂ ದ್ವಿಷತೋ ರಥಂ ಭಾಸ್ಕರಾಯ ನಮಃ ಓಂ ಹ್ರಾಂ ಹ್ರೀಂ ಉದ್ಯನ್ನದ್ಯ ಮಿತ್ರಮಃ ಆರೋಹನ್ನುತ್ತರಾಂ ದಿವಂ ಮಿತ್ರರವಿಭ್ಯಾಂ ನಮಃ ಓಂ ಹ್ರೋಂ ಹ್ರೈಂ ಹೃದ್ರೋಗಂ ಮಮ ಸೂರ್ಯ ಹರಿಮಾಣಂಜನಾಜಯ ಸೂರ್ಯಭಾನುಭ್ಯಾಂ ನಮಃ ಓಂ ಹ್ರೌಂ ಹ್ರಃ ಶುಕೇಶು ಮೇ ಹರಿವಾಣಂ ರೋಪಣಾಕಾಶು ದದ್ಮಸೇ ಘಗಪೋಷಭ್ಯಾಂ ನಮಃ ಓಂ ಹ್ರಾಂ ಹ್ರೀಂ ಅಧೋಹಾರಿದ್ರವೇಶು ಮೇ ಹರಿವಾಣಂ ನಿಧತ್ಮಸೇ ಹಿರಣ್ಯಗರ್ಭಮರೀಚಿಭ್ಯಾಂ ನಮಃ ಓಂ ಹ್ರೂಂ ಹ್ರೈಂ ಉದಗಾದಯಮಾದಿತ್ಯಃ ವಿಶ್ವೇನ ಸಹಸಾ ಸಹ ಆದಿತ್ಯ ಸಮಿತ್ರಭ್ಯಾಂ ನಮಃ ಓಂ ಹ್ರೌಂ ಹ್ರಃ ವಿಶಂತಂ ಮಮ ರಂಧಯನ್ ಮೋ ಅಹಂ ದ್ವಿಷದೋ ರಥಂ ಅರ್ಕಭಾಸ್ಕರಾಭ್ಯಾಂ ನಮಃ ಓಂ ಹ್ರಾಂ ಹ್ರೀಂ ರೋಂ ಹ್ರೈಂ ಉದ್ಯನ್ನದ್ಯ ಮಿತ್ರಮಃ ಆರೋಹನ್ನುತ್ತರಾಂ ದಿವಂ ಹೃದ್ರೋಗಂ ಮಮ ಸೂರ್ಯ ಹರಿವಾಣಂಜನಾಶಯ ಮಿತ್ರರವಿ ಸೂರ್ಯಭಾನುಭ್ಯೋ ನಮಃ ಓಂ ಹ್ರೌಂ ಹ್ರಃ ಹ್ರಾಂ ಹ್ರೀಂ ಶುಕೇಶು ಮೇ ಹರಿವಾಣಂ ರೂಪಣಾಕಾಶು ದದ್ಮಸೇ ಅಧೋಹಾರಿದ್ರವೇಶು ಮೇ ಹರಿವಾಣಂ ನಿಧತ್ಮಸೇ ಘಗಪೋಷಹಿರಣ್ಯಗರ್ಭಮರೀಚಿಭ್ಯೋ ನಮಃ ಓಂ ಹ್ರೂಂ ಹ್ರೈಂ ಹ್ರೌಂ ಹ್ರಃ ಉದಗಾದಯಮಾದಿತ್ಯಃ ವಿಶ್ವೇನ ಸಹಸಾ ಸಹ ದ್ವಿಷಂತಂ ಮಮ ರಂಧಯನ್ ಮೋ ಅಹಂ ದ್ವಿಷತೋ ರಥಂ ಆದಿತ್ಯ ಸವಿತ್ರರ್ಕಭಾಸ್ಕರೇಭ್ಯೋ ನಮಃ ಓಂ ಹ್ರಾಂ ಹ್ರೀಂ ಹ್ರೂಂ ಹ್ರೈಂ ಹ್ರೌಂ ಹ್ರಃ ಉದ್ಯನ್ನದ್ಯ ಮಿತ್ರಮಃ ಆರೋಹನ್ನುತ್ತರಾಂ ದಿವಂ ಹೃದ್ರೋಗಂ ಮಮ ಸೂರ್ಯ ಹರಿವಾಣಂಜನಾಶಯ ಶುಕೇಶು ಮೇ ಹರಿವಾಣಂ ರೋಪಣಾಕಾಶು ದದ್ಮಸೇ ಮಿತ್ರರವಿ ಸೂರ್ಯಭಾನು ಗಗಪೋಷಭ್ಯೋ ನಮಃ ಓಂ ಹ್ರಾಂ ಹ್ರೀಂ ಹ್ರೋಂ ಹ್ರೈಂ ಹ್ರೌಂ ಹ್ರಃ ಅಧೋಹಾರಿದ್ರವೇಶು ಮೇ ಹರಿವಾಣಂ ನಿಧತ್ಮಸೇ ಉದಗಾದಯಮಾದಿತ್ಯಃ ವಿಶ್ವೇನ ಸಹಸಾ ಸಹ ದ್ವಿಷಂತಂ ಮಮ ರಂಧಯನ್ ಮೋ ಅಹಂ ದ್ವಿಷದೋ ರಥಂ ಹಿರಣ್ಯಗರ್ಭಮರೀಚ್ಯಾದಿತ್ಯ ಸವಿತ್ರರ್ಕಭಾಸ್ಕರೇಭ್ಯೋ ನಮಃ ಓಂ ಹ್ರಾಂ ಹ್ರೀಂ ಹ್ರೋಂ ಹ್ರೈಂ ह्रौं ह्रः ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः उद्यन्नद्यमित्रमहः आरोहन्नुत्तरां दिवम् हृद्रोगम् मम सूर्य हरिमाणम् च नाशय शुकेषु मे हरिमाणम् रोपणाकासु दद्मसे अदो कारिद्रवेषु मे हरिमाणन्नि दद्मसे उदगादयमादित्यः विश्वे रसहसा सखा द्विषन्तम् मम रन्धयन् मो अहम् द्विषतो रथम् मित्ररविसूर्यभानुगगभूषहिरण्यगर्भमरेच्यादित्य सवित्रर्कभास्करेभ्यो नमः आदित्यो वा एष एतन्मण्डलम् तपति तत्रतारुचस्तदृचा मण्डलगम् सरृचा लोकोदय एष एतस्मिन्मण्डलेऽर्चिर्दीप्यते तानि सामानि ससाम्नाम् लोकोदय एष एतस्मिन्मण्डलेऽर्चिषि पुरुषस्तानि यजोगुंषि स यजुषा मण्डलगुं स यजुषाम् लोकस्थैषात्रय्येव विद्यातपति यगेशो ओन्तरादित्येरण्मयः पुरुषः छायासुवच्चलाम् वासमेत श्रीसूर्यनारायणः स्वामिने नमः आदित्यो वैतेज ओजो बलम् यशश्चक्षुश्रोत्रमात्मा मनो मन्युर्मनुवृत्युः सत्यो भित्रो वायुराकाश प्राणो लोकपालः क किम् कम् तत्सत्यमन्नम मृतो जीवो विश्व कतमः स्वयम् ब्रह्मैतदमृतगेश पुरुषगेश भूतानामधिपति ब्रह्मणः सायुज्यगुम् स लोकतामाप्नोत्येतासामेव देवता नागुम् सायुज्यगुम् साक्षिदागुम् समानलोकतामाप्नोति यगेवम् वेदेत्युपनिषत् छायासु वच्चलाम् वासमेत श्रीसूर्यनारायण स्वामिने नमः ॐ शान्ति शान्ति शान्तिः ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम् ब्रह्माधिपति ब्रह्मणोऽधिपति ब्रह्मा शिवो मे अस्तु सदाशिवो तद्विष्णोर्परमम् पदगुम् सदा पश्यन्ति सूरयः दिवेव चक्षुरादतम् तद्विप्रासो विपन्यवो जागृवागुम् सस्समिन्दते विष्णोर्यत्परमम् पदम् नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् ॐ साईश्वराय विद्महे सत्यदेवाय धीमहि तन्नः सर्वप्रचोदयात् हंस हंसाय विद्महे परमहंसाय धीमहि तन्नोऽहम् प्रचोदयात् स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीमहीषाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ
Shanti, Shanti, Shanti.